पश्यतयतो तानि पश्पशे
ध्रुवासो अस्य कीरजो जनासः
इन्द्रस्य युज्यः सखा
ब्रह्मन् नोतभरोतभिः
धनं धान्यं पशुं बहु कीर्तिलाभं सदशं वत्सरं तीर्थमायोः
साधनम्
सार्वभौमान् अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्या सच्चिदानन्दा